वेदं शास्त्रं चाणक्यं सारसंग्रहं मूलसूत्रं प्रवक्ष्यामि चाणक्यनुजथोदितं यस्य विज्ञानमात्रेण मूर्खे भवति पंडितः। पूज्यते राजा विद्वन् सर्वत्र पूज्यते पंडिते च गुणा सर्वे मूर्खो दोष हि केवलं तस्मान् मुख सहस्रेषु प्रज्ञ एको विशिष्यते। जपश्यति स पंडितः रूपजौवन संपन्ना विशालकूल संभवः विद्याहीनेन शोभन्ते निर्गन्धायैव किंशुका। सर्वत्र भूषणम् माता शत्रु पिता वैरी येन बालो न पाठतः सभा मध्ये न शोभन्ते हंस मध्ये बको यथा।
¡Gracias!
सर्वान्यपि एकश्चन्द्रस्तमोहन्ति न च तारागणेऽपि च लालयत् पञ्चवर्षाणि दशवर्षाणि ताडयत् प्राप्ते तु षोडशे वर्षे पुत्रमित्रं वदाचरे सर्वसुपुत्रेण कुलंजथा एकोनापि कुवृक्षेण क्रोटरुस्तेन वह्निना दह्यते तद्वनं सर्वकुपुत्रेण कुलंजथा दुर्भिक्षे शत्रुविग्रहे राजद्वारे श्मशाने च जतिष्ठति स बान्धवः मित्रं च पुनः सन्ध्यातुमिच्छति स मृत्यु प्रगृह्णाति गर्भमस्य तरिजथा
मित्र को आगे परित्याग कर
मित्रं चापि न विश्वसेत्। कदाचित् कूपित मित्रं सर्वदोषं प्रकाशयेत्। ज्ञानीयात् प्रेषणे भृत्यन् बान्धवान् व्यसनागमे। मित्रं च यदि कालिं च भर्जं च विभवक्षये। दुर्जनाभियवादी च नैव विश्वासकारणम्। मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम्। मणिनाभूषितः सर्पः कीमशौ न भयङ्करः। सर्पक्रूरः खड्गक्रूरः सर्पत्क्रूरतरः खड्गः। मन्त्रौषधेव सः सर्पः खड्गकेन निवार्यते। स्त्रीषु राजकुलेषु च परदारान् परं द्रव्यं परबादं परस्य च परिहासं गुरुस्थाने चापल्यं च विवर्जयेत्।